ओम ज्ञानतिमरन्दस्य ज्ञानञ्जनाशलाकाय चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः
ॐ पूर्णं पुनः पुनमिदं पूर्णात् पूर्णम् उदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव विशिष्यते ईशावस्यमिदं सर्वं यत्किञ्च जगत्यं जगत् तेन त्यक्तेन भुञ्जिता मघृधकस्य स्विद्धनम् कुर्वाणि विहा कर्माणि जिजीविशेक्षतं समाः एवं स्वैनान्यथेतोऽस्ति न कर्म लिप्यते नरे असुर्य नाम ते लोका अन्धेन तमसावृता तंस्ते प्रत्याभिगच्छन्ति ये किचात्महनो जना अनेजारिकं मनसो जवीयो नायन देवो अप्नुवं पूर्वनर्षत् तद्धावतो ज्ञानत्येति तिष्ठत् तस्मिना पुमाथरीश्वदाति तदेजति तन्नैजति तद्दुरे तद्वन्तिके तदन्तरस्य सर्वस्य तरु सर्वस्यस्य बायतः यस्तु सर्वाणि भूतानि आत्मानि वानुपश्यति सर्वभूतेषु चात्मानं ततो नाभिजुगुप्सते यस्मिन् सर्वाणि भूतानि आत्मा वाद्भूद्विजानतः तत्र को मुहका शोका एकद्वम् अनुपश्यतः सपर्यगच्छुक्रम् अखायरम् आवृणम् अस्नाविदं शूरम् अपापविधम् कविर्मनीषी पर्यभू स्वयंभूर् याथा तथ्यथोर्थान् व्यर्थाश्च स्फथिभ्यः समाभ्यः अन्धं तम प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तामो या उ विद्यायां रतः अन्यारेवहुर्विद्यया अन्याराहुर्विद्यया इति शुश्रुमधीरानं येनस्तद्विचक्षरे विद्यां चाविद्यं च यस्तद्वेदोपयं सः अविद्यायां मृत्युं धीर्त्वा विद्यायां मृत्युम् अश्नुते अन्धं तम प्रविशन्ति ये सम्भूतिम् उपासते ततो भूय इव ते तमो या उ सम्भूत्यं रताः अन्यारिवहुसम्भवाद् अन्यदाहुरसम्भवात् इति शुश्रुमधीरानं येनस्तद्विचक्षरे सम्भूतिं च विनाशं च यस्तद्वेदोपयं सः विनाशेन मृत्युं तीर्त्वा सम्भूत्या मृत्युम् अश्नुते हिरान्मायेन पात्रेण सत्यस्य पिहितं मुखं तत्त्वं कुशन्नपावृणु सत्यधर्माय दृष्टये भूषणे कर्षयमसूर्यप्राजपत्य व्यूहरश्मिन् समूह तेजो यत्थे रूपं कल्याणतमम् तथे पश्यामि योऽसावसौ पुरुषः सोमस्मि वायुरनिलमृतम् अथेदं पश्मान्तं शरीरम् ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर अग्नेनय सुपथरायस्मान् विश्वानि देव वयुनानि विद्वान् युयोज्यस्मश्चुहरानमेनो भूयिष्ठं ते नाम उक्तिं विदेम श्रीयशपरिषद् सम्पूर्णं हरि ॐ
Natcheri ar marman, 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 natcheri ar marman.